सर्वर्षै चिदैशस्त्रैः तदास्त्रैश्चैव तारुणैः तयोर्युद्धमभूद्भूय सर्वलोकभयङ्करम् दिव्यानस्त्राणि सदशो मुमुषेयान्यताम्बिकाम् पपञ्चथानि दैत्येन्द्रस्तत्प्रतीकादकर्तृभिः मुक्तानि तेन शास्त्राणि दिव्यानि परमेश्वरी पपञ्चनीलयैवोक्रां हुङ्कारोच्चरणादिभिः तदशरसदैर्देवी माच्छादयतसोऽसुरः साभि तत्कुबिता देवी धनुच्छिच्छेदशेषुभिः चिह्ने धनुषि दैत्येन्द्रस्तदा शक्तिमता दते छिच्छेददेवि चक्रेण तामभ्यस्य करे स्थिताम् तथ खड्गमुपादाय शदछत्रं च भानुमत् अभ्यतावत्तथा देवीं दैत्यानामधिपेश्वरः तस्यापतत एवासु खड्गं चिच्छेदचण्डिका धनुर्मुक्तैर्चिदैर्बाणैश्चर्मशार्ककरामलं हदाश्वस तथा दैत्यान् छिन्नधन्वा विशारथिः जग्राहमुत्करं कोरम् अम्बिकानिधनोत्यतः छिच्छेदापदतस्तस्य मुत्करं निशितैश्शरैः तदाभिशोभ्यथावत्तां मुष्टिमुद्यम्य वेगवान् समुष्टिं पादयामास हृदये दैत्यभुङ्गवः देव्यास्तञ्चाभिसा देवीं तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपादमहीतले स दैत्यराजसहसा पुनरेव तदोत्तिदः।